इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य द्वितीय चरणार्थं नैर्वाचनिक प्रचाराभियानं ह्यः सायंकाले सम्पन्नं जातम्। समेषां राजनीतिक दलानां शीर्ष नेतारः मतदातृन् निजपक्षे आक्रष्टुं नैरन्तर्येण जनसभासु पथप्रदर्शनेषु च संलग्नाः आसन्। द्वितीयचरणे श्वः शुक्रवासरे केरलस्य 20 आसनानि, कर्णाटकस्य 14, राजस्थानस्य 13, उत्तरप्रदेशमहाराष्ट्रयोः 8, मध्यप्रदेशस्य 7, असमस्य 5, बिहारस्यापि 5, पश्चिमबंगालस्य 3, छत्तीसगढ़स्यापि 3, त्रिपुरा जम्मूकश्मीरयोः 1 आसनं समेत्य द्वितीय चरणे मतदानानि भविष्यन्ति। मणिपुरस्य बाह्य मणिपुर संसदीय क्षेत्रस्य 13 विधानसभा क्षेत्रेष्वपि तस्मिन् एव दिवसे मतदानं प्रकल्पितम् अस्ति। मध्यप्रदेशस्य वेतुल संसदीय क्षेत्रस्य मतदानं यत् द्वितीय चरणे निर्धारितम् आसीत्, अधुना वसपा प्रत्याशेः मृत्योः कारणात् तृतीय चरणे मतदानं भविष्यति। अस्मिन् चरणे बाह्य मणिपुर लोकसभाक्षेत्रस्य 4 अभ्यर्थिनः सहैव 13 राज्येभ्यः केन्द्रशासित प्रदेशेभ्यश्च समस्त 98,100+ यावत् अभ्यर्थिनः निर्वाचनरणे सन्ति। प्रधानमन्त्रिणा वरिष्ठ भाजपेति दलस्य नेत्रा च नरेन्द्रमोदिना ह्यः छत्तीसगढ़स्य अम्बिकापुरे, मध्यप्रदेशस्य सागर मण्डले च जनसभे सम्बोधिता। प्रधानमन्त्रिणा निगदितं यत् समुचित भविष्याय सौम्याधारभूत संरचनाभ्यः कृतनिवेशः महत्वपूर्णं वर्तते। एकस्मिन् श्रव्य सन्देशे श्रीमोदी आपत् प्रतिरोधी संरचनायां समायोजितं 6 अन्ताराष्ट्रिय सम्मेलनं सम्बोधयन् कथितवान् यत् आपदानां मापनं मानव परिवार समुदायैः सम्बद्धम् अस्ति। असौ राष्ट्राणां मध्ये सामूहिक सौम्यावश्यकताभ्यः बलं प्रदत्तवान्। ध्येयं वर्तते यत् आपत् प्रतिरोधी आधारभूत संरचनायाम् आयोजितस्य अन्ताराष्ट्रिय सम्मेलनस्य 6 संस्करणं ह्यः नवदिल्ल्यां समारब्धम्, अद्य यावच्च प्रचलिष्यति। अमेरिका देशीयेन सिनेटाख्येन संसदा एको विवासादपदस्पद विधेयकः अभिस्वीकृतः, यत्र टिकटॉक इत्याख्यः अनुप्रयोगः प्रतिबन्धितो भवितुं शक्नोति इति। यदि विधेयकोऽयं पारितः भविष्यति चेत् चीनदेशस्य अनुप्रयोगः बाइट डांस इत्यस्य अधिकारक्षेत्रे स्वस्याधिकारभागस्य विक्रयणाय 9 कालः अवशिष्टः भविष्यति, उत वा अनुप्रयोगोऽयम् अमेरिकादेशे प्रतिबन्धितो भविष्यतीति। उपराष्ट्रपति जगदीप धनखड़ः श्वः तिरुपति हैदराबादयोः यात्रायां भविष्यति। सः स्वीय आन्ध्रप्रदेशस्य यात्रायाः आरम्भः तिरुपतिनगरस्य तिरुमलायां श्रीवेंकटेश स्वामी मन्दिरे पूजार्चनां च कृत्वा करिष्यति। तिरुपतिस्थितस्य राष्ट्रिय संस्कृत विश्वविद्यालयस्य तृतीये दीक्षांत समारोहे श्री धनखड़ महोदयः मुख्यातिथित्वेन भागं भजिष्यति। आईपीएल इंडियन प्रीमियर लीग इत्याख्यायां क्रिकेट प्रतिस्पर्धा मालिकायां ह्यः दिल्ल्याः अरुण जेटलीति क्रीडांगणे दिल्ली कैपिटल्स दलेन गुजरात टाइटन्स दलं 4 धावनांकैः पराजितम् इति वार्ताः।